एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। राष्ट्रिय स्वतन्त्र दलस्य प्रथम राष्ट्रिय महाधिवेशनान्तर्गतम् पदाधिकारिणाम् प्रचयनाय द्वितीय चरणस्य निर्वाचन कार्यम् जायमानमस्ति। ह्य सम्पन्ने निर्वाचने एकोनशतम् जनाः सदस्य पदेष् निर्वाचिताः वर्तन्ते। रासपा दलस्य विधानानुसारेण प्रथमम् सदस्य पदानाम् कृते निर्वाचनम् भवति। तदनु द्वितीय चरणे उपसभापति सहितानां पदाधिकारिणां कृते निर्वाचनं जायमानमस्ति। सदस्य पदे निर्वाचितेन जनेनैव पदाधिकारी पदानां निर्वाचने भागं ग्रहीतुं शक्यते इति रासोपा दलस्य वैधानिकी व्यवस्था वर्तते। तथैव कतिपय पदाधिकारिणः एकपञ्चाशत् सदस्याश्च सभापतिना चेष्यन्ते इति दलस्य विधाने उल्लिखितं वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन एतत् विक्रमवर्षीयं वैकल्पिक विकास वित्त परिचालन विधेयकं क्रियान्वितमस्ति। नेपालस्य संविधानस्य त्रिउत्तरैकशततमायाः धारायाः द्वितीयोपधारायाः अनुसारेण विधेयकमिदं प्रमाणीकृतमस्ति इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। प्रतिनिधिसभातः पारितीकृतमिदं विधेयकं प्रमाणीकरणाय राष्ट्रपतेः समक्षं सम्प्रत्येव प्रस्तुतमासीत्। सूचना संचार मन्त्री डाक्टर विक्रम तिमिल सिन्हा निगदति जनानां विश्वासे क्षीणे सति संचार माध्यमानाम् अस्तित्वेऽपि प्रश्नः उत्थाप्यन्ते। ह्य चितवन जनपदे पत्रकारैः सह भाषमाणः संचार मन्त्री डाक्टर तिमिल सिन्हा संचारकर्मिणः आत्ममूल्यांकनार्थम् अनुरुणत् असौ अवोचत् आत्मनः भूमिकायाः दायित्वस्य च विषये गभीरं विश्लेषणं विधाय कार्यविहिते सति आगामिषु पञ्चसु वर्षेषु देशस्य गत्या सहैव संचारक्षेत्रेणापि नवीन गतिर्लप्स्यते। अत्रान्तरे मन्त्री डाक्टर तिमिल सिन्हा महाधिवेशनेन रासपा दलम् आधिक्येन सुदृढं दायित्ववाहि एकीकृतं च विधास्यते इति उक्तवान्। दलस्य प्रथम महाधिवेशने मतदानस्य अनन्तरं संचारकर्मिभिस्सह मन्त्री डाक्टर तिमिल सिन्हा महाधिवेशनानन्तरं दलम् अधिकं दृढम् उत्तरदायी च भविष्यति इति अभाषत। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः राष्ट्रिय परीक्षा समित्या द्वादश कक्षायाः परिणामस्य प्रकाशने कथं विधापि शीघ्रता विहिता नास्ति इति स्पष्टयति। मन्त्री पोखरेलः ह्य सामाजिक सञ्जाले आवश्यक जनशक्तिं प्रवर्ध्य अनावश्यकीं प्रशासनिकीं प्रक्रियां निरस्य च परिणाम प्रकाशनकाले एव परिणाम प्रकाशितोऽस्ति इति उक्तवान्। मन्त्री पोखरेलः परीक्षा परिणामस्य प्रकाशनस्य विषयमादाय जायमानमान्दोलनं प्रति सम्मानं प्रदर्श्य लोकतान्त्रिक समाजे नागरिकाणां धारणा प्रस्तुतेः अधिकारस्य सम्मानो विधेय इति उक्तवान्। असौ आन्दोलनरतान् छात्रान् समूहान् च प्रति दुर्व्यवहारम् अपमानयुक्तां टिप्पणीं च वा न कर्तुं सर्वान् अनुरुणत्। अत्रान्तरे शिक्षा खेलकूद मन्त्रालयेन माध्यमिक कक्षायाः परीक्षायाम् उच्च शिक्षायाः परीक्षा प्रणाल्यां च उल्लेखनीय सुधारः जायमानोऽस्तीति ज्ञापितं वर्तते। मन्त्रालयस्य अनुसारेण माध्यमिक कक्षा परीक्षायाः द्वादश कक्षा परीक्षायाः विश्वविद्यालयस्तरीयायाः परीक्षायाश्च परिणामः विगत समयापेक्षया शीघ्रं प्रकाश्यमानोऽस्ति येन शिक्षाक्षेत्रे सुधारस्य सेवाप्रवाहस्य च प्रभावकारिता वर्धमाना अस्ति। अत्रान्तरे शिक्षा खेलकूद मन्त्रालयेन द्वादश कक्षायाः परिणामस्य विषये अध्ययनं विधातुं समितिः संघटिता अस्ति। शिक्षा मन्त्रालयस्य उपसचिवस्य पाठ्यक्रम विकास केन्द्रस्य उपसचिवस्य च प्रतिनिधित्वे उत्तर पुस्तिकायाः परीक्षणाय तथ्याङ्कानां प्रमाणीकरणाय च समितिः संघटिता अस्ति। राष्ट्रिय परीक्षा समित्या सार्वजनिकृतायाः द्वादश कक्षायाः परिणामः अस्वाभाविकः त्रुटिपूर्णश्च सञ्जातः इत्युक्त्वा विद्यार्थिनः आन्दोलनरताः वर्तन्ते। उपराष्ट्रपतिना रामसाय प्रसाद यादवेन सह नेपालस्य कृते अमेरिका देशस्य कार्यवाहक राजदूतेन स्कट अर्बम इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। लैन चौरवर्तिनी उपराष्ट्रपतेः कार्यालये ह्य सम्भूते मेलने अनयोर्मध्ये नेपाल अमेरिका देशयोः द्विपक्षीयस्य सम्बन्धस्य विविधेषु विषयेषु विमृष्टमस्तीति उपराष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। तदवसरे उपराष्ट्रपतिः यादवः नेपाल अमेरिका देशयोः कौटनीतिक सम्बन्ध स्थापनायाः अशीतितमस्य वार्षिकोत्सवस्य अवसरे आगामिनि वर्षे आयोक्ष्यमाणं कार्यक्रमं द्वयोः देशयोः दीर्घकालिक मित्रतायाः सहकार्यस्य च महत्वपूर्णः भविष्यति इति प्रावोचत्। तदवसरे कार्यवाहक राजदूतः अर्बम नेपाल अमेरिका देशयोः सम्बन्धः दीर्घकालिकः ऐतिहासिकः बहुआयामिकश्च वर्तते इति चर्चयन् सम्बन्धमिमम् इतोऽपि उच्चस्तायां प्रापयितुम् अमेरिकादेशः तत्परोऽस्ति इति प्रावोचत्। स्वास्थ्य खाद्य स्वच्छता मन्त्रालयेन रेबीज रोगस्य टीकौषधस्य सम्प्रति आसन्न 10,000 मात्राः भण्डागारे सुरक्षितानि सन्तीति ज्ञापितम् अवर्तते। मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी सम्प्रति केन्द्रीयाणां प्रादेशिकानां जनपदस्तराणां च चिकित्सालयानां भण्डागारे आसन्न 10,000 रेबीज रोगस्य टीकौषधस्य मात्राः विद्यमाना वर्तन्ते इति असूचयत्। एतस्य अनुसारेण विश्व स्वास्थ्य संघटनस्य सहयोग 2,500 रेबीज रोगस्य टीकौषधस्य मात्राः प्राप्ताः सन्ति। अतिरिक्तानि 4,500 चेति टीकौषधस्य मात्राणां कञ्चनकालानन्तरं प्राप्ते सुनिश्चयनं सम्भूतमस्ति। स्वास्थ्य खाद्य स्वच्छता मन्त्रालयेन शूनाम् अन्य प्राणिनां च दंशोपचाराय आवश्यक टीकौषध सेवायाः सहजीकरणाय च स्थानीय स्तरः अनुरुद्धा वर्तन्ते। कृषक सूचीकरण प्रणाल्याम् अधुनावधि आराष्ट्रं 27 लक्षाणि कृषकाः आबद्धा वर्तन्ते। कृषि वन पर्यावरण मन्त्रालयेन भूमेः विवरणं कृषि उत्पादनं चाधृत्य कृषकाः सूचीकृताः अभूवन्। वैद्युत प्रणाल्यां सूचीकरणं विधाय कृषकाः चतुर्षु वर्गेषु विभक्ताः सन्तः आवश्यकस्य सौविध्यस्य प्रदानस्य अनुसारेण कार्यं जायमानमस्ति इति कृषि सूचना केन्द्रस्य अधिकृतः संजीव पण्डितः असूचयत्। सर्वकारेण कृषकेभ्य परिचय पत्रस्य आधारेण अनुदान सहितं रासायनिक मलं बीजानि चेति प्राविधिक सेवाश्च प्रदास्यन्ते इति ज्ञापितं वर्तते। इति समाचारः।